वंशस्थ छंद। जतो तु वंशस्थ मुदीरितं जरो श्री शुकदेव कृत स्तुति। नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थान निरोध लीलया गृहीत शक्ते त्रितयाय देहिना मंतर भवाय अनुपलक्ष वर्त्मने भूयो नमः सद्वृजिनच्छिदेशतामसंभवायाखिल सत्त्वमूर्तये पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे नमो नमस्ते स्त्रिषभाय सात्वतां विदूरकाष्ठाय मुहुर्कुयोगिनां निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः। यत्कीर्तनं यत् स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् लोकस्य सत्यो विधुनोति कल्मषम् तस्मै सुभद्रश्रवसे नमो नमः। विचक्षणाय चरणोपसादनात् संगम व्युदस्यो भयतोऽन्तरात्मनः विन्दन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः। तपस्विनो दानपरायशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः क्षेमं न विन्दन्ति विना यदर्पणम् तस्मै सुभद्रश्रवसे नमो नमः। किरात पूर्णान्ध्रपुलन्दपुल्कसा आभीरकङ्कायवनः खसादयः येन्ये च पापायदुपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः। स एष आत्मात्मवतामधीश्वरस्त्रयी मयो धर्ममयस्तपो मयः गतव्यलीके रजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान् प्रसीदताम् श्रियः पतिर्यज्ञपति प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः पतिर्गतिश्चान्धक वृष्णिसात्वता प्रसीदतां मे भगवान् सतां पतिः यदङ्घ्र्यनुध्यानसमाधिधातया धियानुपश्यन्ति हि तत्त्वमात्मनः वदन्ति चेतात् कवयो यथा रुचम् स मे मुकुन्दो भगवान् प्रसीदताम् प्रचोदितायेन पुरा सरस्वती वितन्वता जस्य सतीं स्मृतिं हृदि स्वलक्षणा प्रादुर्भूत् किलास्यतः स मे ऋषीणां वृषभः प्रसीदताम् भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः भुङ्क्ते गुणांशोडश षोडशात्मकः सोऽलङ्कृषीष्ट भगवान् वचांसि मे नमस्तस्मै भगवते वासुदेवाय वेधसे वपुर्ज्ञानमयं सौम्या यन्मुखाम्बुरुहासवम्